कदाचित् गोपालान् विहितमखसंभार विभवान् निरीक्षत्वं शौरे मघवमदं उध्वंसितुमनाः विजानन्नप्येतान् विनयमृदु नन्दादिपशुपान् अपृच्छः को वायं जनक भवताम् उद्यम इति बभाषे नन्दस्त्वां सुत ननु विधेयो मघवतो मखो वर्षे वर्षे सुखयति सवर्षेण पृथिवीं नृणां वर्षायत्तं निखिलमुपजीव्यं महितले विशेषात् अस्माकं तृणसलिलजीवा हि पशवः इति श्रुत्वा वाचं पितुः अयि भवान् आहसरसं धिगेतत् नो सत्यं मघवजनिता वृष्टिरिति यत् अदृष्टं जीवानां सृजति खलु वृष्टिं समुचितां महारण्ये वृक्षाः किमिव बलिम् इन्द्राय ददते इदं तावत् सत्यं यदिह पशवो नः कुलधनं तदा जीव्याय असौ बलिः अचलभर्त्रे समुचितः सुरेभ्योऽपि उत्कृष्टाः ननु धरणिदेवाः क्षितितले ततः तेऽपि आराध्याः इति जगदिथ त्वं निजजनान् भवद्वाचं श्रुत्वा बहुमतियुतास्तेऽपि पशुपाः द्विजेन्द्रान् अर्चन्तो बलिमददुः उच्चैः क्षितिभृते व्यधुः प्रादक्षिण्यं सुभृशमनमन् आदरयुताः त्वमादशैलात्मा बलिमखिलम् आभीरपुरतः अवोचश्चैवं तान् किमिह वितथं मे निगदितं गिरीन्द्रोऽनन्वेषः स्वबलिम् उपभुङ्क्ते स्ववपुषा अयं गोत्रो गोत्रद्विषि च कुपिते रक्षितुम् अलं समस्तान् इत्युक्ताः जहृषुः अखिलाः गोकुलजुषः परिप्रीतायाताः खलु भवदुपेताः व्रजजुषः व्रजं यावत्तावत् निजमख विभङ्गं निशमयन् भवन्तं जानन्नपि अधिकरजसाक्रान्तहृदयः न सेहे देवेन्द्रः त्वदुपरचितात्मोन्नतिरपि मनुष्यत्वं यातो मधुभिदपि देवेष्वविनयं विधत्ते चेत् नष्टस्त्रिदशसदसां कोऽपि महिमा ततश्च ध्वंसिष्ये पशुपहतकस्य श्रियमिति प्रवृत्तस्त्वां जेतुं स किल मघवा दुर्मदनिधिः त्वदा वा संहन्तुं प्रलयजलदान् अम्बरभुवि प्रहिण्वन् बिभ्राणः कुलिशम् अयमभ्रे भगमनः प्रतस्थे अन्यैः अन्तर्दहनमरुदाद्यैः विहसितो भवन्मायानैव त्रिभुवनपते मोहयतिकं सुरेन्द्रः क्रुद्धश्चेत् द्विजकरुणया शैलकृपयापि अनातङ्कः अस्माकं नियतः इति विश्वास्य पशुपान् अहो किन्नायातो गिरिभिदिति सञ्चिन्त्य निवसान् मरुद्गेहाधीशा प्रणुद मुरवैरिन् मम गदान्। ओं तत्सदिति श्रीमन्नारायणीये द्विषष्टितमं दशकं समाप्तं। श्रीहरये नमः। रमा रमणगोविन्दा गोविन्दा श्रीकृष्णार्पणमस्तु।